अथ श्रीगुर्वष्टोत्तरशतनामस्तोत्रम्
गुरुर्गुणवरो गोप्ता गोचरो गोपतिप्रियः गुणी गुणवतां श्रेष्ठो गुरूणां गुरुरञ्जयः जेता जयन्तो जयतो जीवो नन्तो जयावहः आङ्गीरसोऽध्वराशक्तो विविक्तोऽध्वरतृत्परः वाचस्पतिर्वशीवस्य वरिष्ठो वाग्विचक्षणः चित्तशुद्धिकरश्रीमान् क्षेत्रश्चित्रशिखण्डिजः बृहद्रथो बृहद्भानुर्बृहस्पतिरभीष्टवः सुराचार्यस्सुराराध्यस्सुरकार्यहितम्परः गीर्वाणकोशको धन्यो गीष्पतिर्गिरिशो नरः धीवरोऽभिषणो दिव्यभूषणो देवपूजितः धनुर्धरो दैत्यहन्ता दयासारो दयाकरः दारिद्र्यनाशको धन्यो दक्षिणायनसम्भवः धनुर्मीनाधिपो देवो धनुर्बाणधरो हरिः आङ्गीरसाब्दसञ्जातः आङ्गीरसपुरोद्भवः सिन्धुदेशाधिपो धीमान् स्वर्णवर्णश्चतुर्भुजः हेमाङ्गदो हेमवपुर्हेमभूषणभूषितः पुष्यनाथपुष्यरागमणिमण्डनमण्डितः काशपुष्पसमानाभः कलिदोषनिवारकः इन्द्राधिदेवो देवेशो देवताभीष्टदायकः असमानबलस्तत्त्वगुणसम्पद्विभासुरः भूसुराभीष्टदो भूयिशः पुण्यविवर्धनः धर्मरूपोधनाध्यक्षो धनदो धर्मपालनः सर्ववेदार्थतत्त्वज्ञः सर्वापद्विनिवारकः सर्वपापप्रशमनस्त्वमतानुगतामरः ऋग्वेदपारगो वृक्षराशिमार्गप्रचारकः सदानन्दः सत्यसन्धः सत्यसङ्कल्पमानसः सर्वागमज्ञः सर्वज्ञो सर्ववेदान्तविद्वरः ब्रह्मपुत्रो ब्राह्मणेशो ब्रह्मविद्याविशारदः समानाधिकनिर्मुक्तः सर्वलोकवसम्बदः ससुरासुरगन्धर्ववन्दितः सत्यभाषणः नमः सुरेन्द्रगञ्जाय देवाचार्याय ते नमः नमस्तेऽनन्तसामर्थ्यवेदसिद्धान्तकारकः सदानन्द नमस्तेऽस्तु नमः पीडाहराय च नमो वाचस्पते तुभ्यम् नमस्ते पीतवाससे नमो द्वितीयरूपाय लम्बकूर्चाय ते नमः नमः प्रभृष्टनेत्राय विप्राणाम् पतये नमः नमो भार्गवशिष्याय विपन्नहितकारिणे नमस्ते सुरसैन्यानाम् विपत्त्राणहेतवे बृहस्पतिसुराचार्यो दयावान् शुभलक्षणः लोकत्रय गुरु श्रीमान् सर्वतः सर्वतो विभुः सर्वेशः सर्वदा दृष्टः सर्वदः सर्वपूजितः अक्रोधनो मुनिश्रेष्ठो नीतिकर्ता जगत्पिता विश्वात्मा विश्वकर्ता च विश्वयोनिरयोनिजः भूर्भुवो धनदाता च भर्ता जीवो महाबलः बृहस्पतिकास्य देयो दयावान् शुभलक्षणः अभीष्टफलद श्रीमान् सुभद्रः नमोऽस्तु ते बृहस्पतिः सुराचार्यो देवासुरसुपूजितः आचार्यो दानवादिश्च सुरमन्त्री पुरोहितः कालज्ञः कालऋग्वेत्ता चित्तदश्च प्रजापतिः विष्णुकृष्णस्तथा सूक्ष्मः प्रतिदेवोज्ज्वलग्रहः।